अथ सप्तम स्कंध अथ द्वितीयोध्याय नारद उवाच भ्रातर्यवं विनिहते हरिणा क्रोडमूर्तिना हिरण्यकशिपुराजन् पर्यतप्य दृशा शुचा आह चेदम रुषा घोण छंदस्त दशनच्छद कोपो ज्वलद्भ्याम चक्षुर्भ्याम निरीक्षन् धूम्रमंबरम् कराल दंष्ट्रोग्रदृष्ट्या दुष्पेक्षा भ्रिकुटी मुखः शूलमुद्यम्य सदसि दानवानिदमब्रवीत् भो भो दानव दैतेया द्विमूर्धस्त्र्यक्ष संबर शतबाहो हयग्रीव नमुचे पाकैल्वल विप्रचित्ते मम्बच पुलोमन् शकुनादयः स्मृतानन्तरम् सर्वे क्रियतामाशुमाचिरम् सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् पार्श्वग्राहेण हरिणा समेनाप्युपधावनैः तस्य त्यक्तस्वभावस्य घृणिर्मायावनौकसः भजन्तम् भजमानस्य बालस्येवा स्थिरात्मनः मच्छुण्डभिन्नग्रीवस्य भूरिणा रुधिरेण वै रुधिरप्रियम् तर्पयिष्ये भ्रातरम् मे गतव्यथः तस्मिन् कूटे हिते नष्टे कृतमूले वनस्पतौ विटपा इव शुष्यन्ति विष्णुप्राणादिवौकशः तावज्जातभुवम् जूयम् विप्रच्छत् समेधिताम् सुदयध्वम् तपोजज्ञ स्वाध्याय व्रतदानिनः विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् देवर्षिपितृभूतानाम् धर्मस्य च परायणम् यत्र यत्र द्विजागावो वेदात् वर्णाश्रमः क्रियः तम् तम् जनपदम् जात सन्दीपयत वृश्चत इति ते भर्तृनिर्देशम् आदाय शिरसाधृतः तथा प्रजानाम् कदनम् विदधु कदनप्रियः पुरग्राम ब्रजोद्यान क्षेत्रारामाश्रमाकरान् खेट खर्वट घोषांश्च दद्दहु पतनानि च केचित् खनित्रय विविधु सेतु प्राकार गोपुरान् आजीव्याञ्चिक्षिदुर्वृक्षान् केचित् परशुपाणयः प्रादहन् सरलान्यन्ये प्रजानाम् ज्वलितोन्मुखैः एवम् विप्रकृते लोके दैतेन्द्रानुचरैर्मुहुः दिवम् देवः परित्यज्य भुवि चेरुरलक्षितः हिरण्यकशिपुर्भ्रातु सम्परे तस्य दुःखितः कृत्वा कटोदकादीनि भ्रातृपुत्रान् सान्त्वयत् शकुनिम् संवरम् धृष्टम् भूतसन्तापनम् वृकम् कालनाभम् महानाभम् हरिश्रमश्रुवथोत्कचम् तन्मातरम् रुषाभानम् दितिम् च जननीम् गिरा संक्षणया देशकालज्ञ इदमाह जनेश्वर हिरण्यकशिपुर्वाच अम्बाम्ब हे वधूपुत्रा वीरम् अर्हत शोचितुम् रिपोरभिमुखे श्लाघ्य सुराणाम् बध ईप्सितः भूतानामिह संवासः प्रपायामिव सुव्रते दैवेनैकत्र नीतानामुन्नीतानाम् स्वकर्मभिः नित्य आत्मा व्यः शुद्ध सर्वगः सर्ववित्परः धत्ते सावात्मनो लिङ्गम् माया विसृजन् गुणान् जथाम्भसा प्रचलता तर्वोऽपि चला इव चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भू एवम् गुणैर्भ्राम्यमाणे मनस्य विकलः पुमान् जाति तत्साम्यताम् भद्रे यलिङ्गो लिङ्गवानिव एष आत्मविपर्यासो यलिङ्गे लिङ्गभावना एष प्रिया प्रियर्योगो वियोगः कर्म संसृतिः सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः अविवेकश्च चिन्ता च विवेका स्मृतिरेव च अत्रापुदाहरन्तीमम् इतिहासम् पुरातनम् यमस्य प्रेतबन्धूनाम् संवादम् तम् निबोधत उसी नरेश्वभुद्राजा सुजज्ञ इति विश्रुतः सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत विशीर्ण रत्न कवचम विभ्रष्टाभरण स्रजम सर निर्भिन्न हृदय शयानम श्रृगाविलम प्रकीर्ण केशम ध्वस्ताक्षम रभसा दस्त दच्छदम रजः कुंठ मुखाम्भोजम छिन्नायुध भुजम मृधे कुशी नरेन्द्रम विधिना तथा कृतम पतिं महिष्यः प्रशमीक्ष्य दुःखितः हताश्मनाथेति करैरुरोर्भृशम् ग्रन्त्यो मुहुस्तत्पदयोरुपापतन् रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजम् सिञ्चन्त अस्रये कुङ्कुचकुङ्कुमारुणैः विस्रस्तकेशाभरणा शुचम् नृणाम् सृजन्तया क्रन्दनया विलेपिरे अहो विधात्रा करुणेन नः प्रभो भवान् प्रणीतो दृगगोचराम् दशाम् उषी नराणामसिवृत्तिदः पुरा कृतोऽधुना येन शुचाम् विवर्धनः त्वया कृतज्ञेन वयम् महीपते कथम् विनाश्याम सुहृत्तमेन ते तत्रानुयानम् तव वीरपादयोः शुश्रूषतीनाम् दिश यत्र जास्यसि एवम् विलपतीनाम् वै परिगृह्यमृतम् पतिम् अनिच्छतीनाम् निर्हारम् अर्कोस्तम् सन्न्यवर्तत तत्र प्रेतबन्धूनाम् आश्रित्य परिदेवितम् आहतान् बालको भूत्वा यमः स्वयमुपागतः यम उवाच अहो अमीषाम् वयसाधिकानाम् विपश्यताम् लोकविधिम् विमोहः यत्रागतस्तत्र गतम् मनुष्यम् स्वयम् सधर्मा अपि शोचन्त्यपार्थम् अहो वयम् धन्यतमा यदत्र त्यक्तः पितृभ्याम् न विचिन्तयामः अभक्ष्यमाणा अबलावृकादिभिः सरक्षिता रक्षति यो हि गर्भे य इच्छये सः सृजतीदमव्ययो य एव रक्षत्तव लुम्पते च यः तस्या बलः क्रीडनमाहुरीषितुश्चराचरम् निग्रह सङ्ग्रहे प्रभु पथि चितम् तिष्ठति रक्षितम् गृहे स्थितम् तद्विहतम् विनश्यति जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽस्य हतो न जीवति भूतानि स्तैस्तैर्निजोनिकर्मभिर्भवन्ति काले न भवन्ति सर्वशः न तत्र आत्मा प्रकृतावपि स्थितः तस्या गुणैरन्यतमो निबध्यते इदम् शरीरम् पुरुषस्य मोहजम् यथा पृथग् भौतिकमीयते गृहम् यथोदकः पार्थिव तैजसैर्जनः कालेन जातो विकृतो विनश्यति यथा नलो दारुषभिन्नयते यथा नीलो देहगतः पृथक् स्थितः यथा नभः सर्वगतम् न सज्जते तथा पुमान् सर्वगुणाशयः परः सुजज्ञो नन्वयम् शेते मूढजमन् शोचथ यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् न श्रोता नानुवक्तायम् मुख्योऽप्यत्र महानसुः जस्त्विहेन्द्रियमानात्मा स चान्यः प्राणदेहयोः भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभुः भजति उत्सृजति यन्यस्तच्चापि स्वेन तेजसा यावल्लिङ्गान्वितो यात्मा तावत् कर्म निबन्धनम् ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते वितथाभिनिवेशोऽयम् यद्गुणेष्वर्थदृग्वशः यथा मनोरथः स्वप्नः सर्वम् ऐन्द्रियकम् मृषा अथ नित्यमनित्यम् वा नेह शोचन्ति तद्विदः नान्यथा शक्यते कर्तुम् स्वभावः शोचतामिति लुब्धको विपिने कश्चित् पक्षिणाम् निर्मितन्तकः वितत्य जालम् विदधे तत्र तत्र प्रलोभयन् कुलिङ्गमिथुनम् तत्र विचरत् समदृश्यत तयोः कुलिंगी सहसा लुब्धकेन प्रलोभिता सा सज्जतसि च स्तन्त्यां महिषी कालयन्त्रिता कुलिंगस्तां तथा पन्नां निरीक्ष्य भृशदुःखितः स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् अहो अकरुणो देवः स्त्रिया अकरुणया विभुः कृपणं मानुशोचन्त्या दीनया किं करिष्यति कामं नयतु मां देवः किमर्धेनात्मनो हि मे दीनेन जीवता दुःखम् अनेन विधुरायुषा कथं त्वजातपक्षांस्तान् मातृहीनान् विभर्म्यहम् मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजः एवं कुलिंगं विलपन्तमारात् प्रिया वियोगातुरमश्रुकण्ठम् स एव तं शाकुनिकः शरेण विव्याधकालप्रहितो विलीनहम् एवं यूयमपश्यन्त्य आत्मा पायम बुद्धयः नयनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि हिरण्यकश्यपुर्वाच बाल एवं प्रबदति सर्वे विस्मितचेतसः ज्ञातयो मे निरे सर्वम् अनित्यम् अजथोत्थितम् यम एतदुपाख्याय तत्रैवान्तरधीयत ज्ञातयोऽपि सुजज्ञस्य चक्रुर्यत्साम्परायिकम् ततः शोचत मायूयम् परम् चात्मानमेव च कयात्मा कः परो वात्र स्वीयः पारक्य एव वा स्वपराभिनिवेशेन विना ज्ञानेन भिन्देहिना नारद्वाच इति दैत्यपतेर्वाक्यम् दितिराकरणे श्वश्नुषा पुत्रशोकम् क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् सप्तमस्कन्धे दितिशोकापनयनम् नाम द्वितीयोऽध्यायः।